यथामनौ साम्बरनौ सोममिन्द्रादिवस्तुतम् नीपादिशौ मघवन्मेध्यादिशौ पुष्टिगौ सृष्टिगौ सचाः बार्हद्वारः प्रसकम्बम् समासादयच्छजानम् दिव्यमुद्धीतम् सहस्राण्यशिरा सद्गवामृढि स्तोतोदस्य वेवृगाः य बुद्धेभेन विन्दते चिकिज्जरीषिचोदनः इन्द्रम् समुच्छावदनव्यस्य मत्यरिष्यम् तम् न भोजसे यस्मार्कम् सप्तशीर्घाणामृतस्तृधातुमुत्तमे पदे सत्वीमा विश्वा भुवानानि विक्रतदादिज्यनिष्ठपुंस्यम् यो नो दारावसूनामिन्द्रम् तम् भूमहे वयम् यद्बाह्यस्य सुमतिम् नवीयसीम् गमे मगोपतिव्रजे यस्मै त्वम् वसो दानाय शिक्षसि स राजस्पोषमश्नुते अम्बावयम् मघवन्निन्द्रगर्वणः सुताम् दोहवामहे कदाचनस्तरीरशिलेन्द्रसश्चसि दासुषे उभोगेन्नु मघवन्भुजैन्नु देदानम् देवस्य पृच्छते प्रयो न रक्षे अभ्योजसाकृभिम् वदै सुष्णम् निघोषयन् यदेतस्तम् भेत्प्रथयम् नमोन्दिभवादिज्यनिष्ठपार्थिवः यस्यायम् विश्वार्यो दासस्येव धिपादि तिरश्चीदर्येरु स मे पवीरभिरुद्धे स्वाज्यते रजिः सुरण्यभो मधुमन्त्रम् गृहसुरमि विप्रासो अकमाद्रुः अनसेजयपप्रदे वृष्ण्यम् सपोस्ते सुपानासैन्दवः।